अथ पञ्चमः सर्गः अथ हिमवद्वर्णनम् आरभते तत्र पञ्चदशभिः कुलकमाः अथ जयायनुमेरुमहीभृतो रभसयानुदिगन्तदिदृक्षया अभिययौ स हिमाचलमुच्छ्रितम् समुदितम् नु विलङ्घयितुम् नभः अथेति अथ अनन्तरम् सः अर्जुनः मेरुमहीभृतः हेमाद्रेः जयाय नु जयार्थम् वा नुशब्दः अत्र वितर्के नु पृच्छायाम् वितर्के च इत्यमरः रभसः वेगः रभसो वेगहर्षयोः इति वैजयन्ती विश्वप्रकाशौ तद्वत्या रभसया अतीव उत्कण्ठतया इति यावत् अर्ष आदित्वात् अच् प्रत्ययः दिगन्तानाम् दिदृक्षया नु द्रष्टुमिच्छया वा नभः अन्तरिक्षम् विलङ्घयितुम् नु अतिक्रमितुम् वा समुदितम् समुत्पतितमिव स्थितमित्यर्थः कुतः उच्छ्रितम् उन्नतम् हिमस्य अचलम् हिमाचलम् अभिययौ अत्र निर्धारितानेकफल औन्नत्यगुणनिमित्तोदितादिक्रियोत्प्रेक्षा सा च व्यञ्जकाप्रयोगात् प्रतीयमानेति संक्षेपः द्रुतविलम्बितम् वृत्तम् द्रुतविलम्बितमाहनभौभरौ इति लक्षणात् तपनमण्डलदीपितमेकतः सततनैशतमो वृतमन्यतः हसितभिन्नतमिस्रचयम् पुरः शिवमिवानुगतम् गजचर्मणा तपनेति पुनः एकतः एकस्मिन् भागे सार्वविभक्तिकः तसिः तपनमण्डलेन दीपितम् प्रकाशितम् अन्यतः अन्यस्मिन् भागे सततेन अनिषिद्धेन नैषेन निशिभवेन तमसा वृतम् एकत्र अह्ना रात्र्या च अन्यत्र सङ्गतमित्यर्थः अत एव पुरः अग्रे हसितेन अट्टहासेन भिन्नतमिस्रचयम् निरस्ततमस्तोमम् तथा गजचर्मणा अनुगतम् पश्चात् व्याप्तम् पश्चात् सादृश्ययोरनु इत्यमरः शिवमिव स्थितम् तपनतेजःप्रसारोऽपि अस्य कणः इव कुत्रचित् परिसमाप्यते इति महत्वातिशयोक्तिः क्षितिनभः सुरलोकनिवासिभिः कृतनिकेतमदृष्टपरस्परैः प्रथयितुम् विभुतामभिनिर्मितम् प्रतिनिधिम् जगतामिव शम्भुना क्षितीति परस्परे अन्योन्ये कर्मव्यतिहारे सर्वनाम्नो द्वे भवतः इति वक्तव्यात् परशब्दस्य द्विर्भावः समासवच्च बहुलम् यदा न समासवत् प्रथमैकवचनम् तदा पूर्वपदस्य इति वक्तव्यात् प्रथमैकवचनम् सुट् कस्कादित्वात् विसर्जनीयस्य सत्त्वम् बहुवचनम् च अन्योन्यशब्दवत् यथा माघे अन्योन्येषाम् पुष्करैरामृशन्तः इति अदृष्टाः परस्परे यैस्ते अदृष्टपरस्पराः तैः तथोक्तैः क्षितौ नभसि सुरलोके च निवसन्तीति तैः तथोक्तैः भूर्भुवस्वर्लोकवासिभिरित्यर्थः कृतनिकेतम् कृतास्पदम् अत एव शम्भुना विभुताम् स्वसामर्थ्यम् प्रथयितुम् अभिनिर्मितम् जगताम् प्रतिनिधिम् प्रतिकृतिमिव स्थितमिति उत्प्रेक्षा। ప్రతికృతిరర్చ పుంసి ప్రతినిధిః ఇత్యమరః త్రైలోక్యశ్లాఘ్యోపమం అపరిచ్ఛేద్యం చేతి భావః భుజగరాజసితేన నభశ్రితా కనకరాజి విరాజిత సానునా సముదితం నిచయేన తడిత్వతీం లఘయతా శరదంబుద సంహతిం భుజగేతి పునశ్చ భుజగరాజసితేన శేషాహిధవలేన నభశ్రితా గగనస్పృశా కనకస్య రాజిభిః రేఖాభిః విరాజితాః సానవః యస్య తేన తథోక్తేన అత ఏవ తడిత్వతీం శరదంబుద సంహతిం శరన్మేఘచయం లఘయతా లఘూకుర్వతా తత్తుల్యేన ఇత్యర్థః అత ఏవ ఉపమాలంకారః నిచయేన శిఖరసమూహేన సముదితం సమున్నతం నిచయేనేతి యద్యపి నిచయశబ్దః శిఖరస్య అవాచకః తథాపి పర్వతవర్ణన ప్రకరణోక్తత్వాత్ పాషాణనిచయః శృంగవాచీ భవితుమర్హతి యథా కూటోస్త్రీ శిఖరం శృంగం ఇతి కూటశబ్దః సమూహాపరపర్యాయః అత ఏవ లక్షణా ఆశ్రయణీయా అత ఏవ అవాచ్యవచనం న దోషః మణిమయూఖచయాంశుకభాసురాః సురవధూపరిభుక్తలతాగృహాః దధతముచ్చశిలాంతరగోపురాః పుర ఇవోదితపుష్పవనా భువః మణీతి పునః మణిమయూఖచయాః అంశుకానీవ పటకాదీనీవ తైః భాసురాః సురవధూభిః పరిభుక్తాః లతాః గృహాః ఇవ యాసుతాః తథోక్తాః ఉచ్చాని శిలాంతరాణి గోపురాణీవ శిలాంతరాణి శిలామధ్యాని పురద్వారాణి యాసుతాః ఉదితాని ఊర్జితాని పుష్పాణాం వనాని యాసుతాః అత ఏవ పురః ఇవ నగరాణి ఇవ స్థితాః భువః దధతం అవిరతోజ్జితవారివిపాండుభిః విరహితైరచిరద్యుతితేజసః ఉదితపక్షమివారతనిస్వనైః పృథునితంబవిలంబిభిరంబుదైః అవిరతేతి పునశ్చ అవిరతం అవిచ్ఛిన్నం ఉజ్జితవారయః అవృష్టిమంతః ఇత్యర్థః అత ఏవ విపాండవశ్చ తైః అవిరతోజ్జితవారివిపాండుభిః అత ఏవ హిమవత్పక్షత్వం సంభవతీతి భావః అచిరద్యుతితేజసా విరహితైః విద్యుత్తేజోరహితైః ఆరతనిస్వనైః ప్రశాంతగర్జితైశ్చ అన్యథా పక్షత్వహానిః స్యాత్ ఇతి భావః పృథునితంబవిలంబిభిః మహాకటకసంగిభిః కటకోస్త్రీ నితంబోద్రేః ఇత్యమరః అంబుదైః ఉదితపక్షం సంజాతపక్షమివ స్థితం ప్రాక్ ఛిన్నపక్షస్యాపి హిమాద్రేః ధవలాంబుదసంబంధాత్ పునః పక్షోత్థానం ఉత్ప్రేక్ష్యతే దధతమాకరిభిః కరిభిః క్షతైః సమవతారసమైరసమైస్తటైః వివిధకామహితా మహితాంభసః స్ఫుటసరోజవనా జవనానదీః దధతమితి పునశ్చ ఆకరః ఖనిః ఏషామస్తి యోనిత్వేనేతి ఆకరిభిః ఆకరజైః खनिस्त्रियाम् आकरस्यात् इत्यमरः करिभिः गजैः कर्तृभिः क्षतैः रुग्णैः समवतारेषु तीर्थेषु समैः अविषमैः असमैः असदृशैः अनुपमैः इत्यर्थः तटैः उपलक्षिताः तथा महिताम्भसः श्लाघ्योदकाः अत एव विविधेभ्यः कामेभ्यः अवगाहनाद्युपभोगेभ्यः हिताः अनुकूलाः चतुर्थी तदर्थ इत्यादिना समासः स्फुटानि विकसितानि सरोजवनानि यासु ताः जवनाः वेगवतीः जुचंक्रम्य इत्यादिना ह्युच् नदीः दधतम् यमकवृत्यनुप्रासभेदत्वात् स्वयमेवालङ्कारः अर्थालङ्कारस्तु अभ्युच्चयः तस्य अतिदुष्करत्वात् रसपोषोऽपि नाद्रियते तदुक्तम् प्रायशो यमके चित्रे रसवृद्धिर्न मृग्यते नवविनिद्रजपाकुसुमत्विषाम् द्युतिमताम् निकरेण महास्मनाम् विहितसान्ध्यमयूखमिव क्वचित् निचितकाञ्चनभित्तिषु सानुषु नवेति पुनश्च नवानि विनिद्राणि विकसितानि च यानि जपाकुसुमानि ताम्रपुष्पिकाकुसुमानि तेषाम् त्विषः इव त्विषः येषाम् ते तेषाम् ओड्रपुष्पम् जपापुष्पम् रूपिका ताम्रपुष्पिका इति वाग्भटः द्युतिमताम् महाश्मनाम् मणीनाम् पद्मरागाणाम् इत्यर्थः विशेषणसामर्थ्यात् निकरेण समूहेन हेतुना क्वचिन्निचिताः सङ्घटिताः काञ्चनभित्तयः येषु तेषु सानुषु विहिताः सान्ध्याः सन्ध्यायाम् भवाः मयूखाः यस्मिन् तमिव स्थितम् काञ्चनभित्तिषु पद्मरागप्रभाप्रसरात् उदितसन्ध्याराग इव भातीति उत्प्रेक्षा पृथुकदम्बकदम्बकराजितम् ग्रथितमाल तमालवनाकुलम् लघुतुषार तुषारजलस्युतम् धृतसदान सदानन दन्तिनम् पृथ्विति पुनश्च पृथुभिः कदम्बवताम् कदम्बकैः नीपकुसुमसमूहैः राजितम् कदम्बमाहुः सिद्धार्थे नीपे च निकुरम्बके इत्युभयत्रापि विश्वः ग्रथितमालैः बद्धपङ्क्तिभिः तमालवनैः तापिच्छवनैः आकुलम् आकीर्णम् कालस्कन्धस्तमालस्यात् तापिच्छोऽपि इत्यमरः लघुतुषारम् अल्पशीकरम् यत् तुषारजलम् हिमोदकम् स्योतति वर्षति तम् तथोक्तम् तुषारौ हिमसीकरौ इति शाश्वतः अन्येभ्योऽपि दृश्यते इति क्विप् सदानाः समदाः सदाननाः शोभनाननाश्च ये दन्तिनः ते धृताः येन तम् तथोक्तम् रहितरत्नचयान्न शिलोच्चयान् अपलता भवना न दरीभुवः विपुलिनाम्बुरुहा न सरिद्वधूः अकुसुमान् दधतम् न महीरुहः रहितेति पुनश्च रहितरत्नचयान् रहितः परित्यक्तः रत्नचयः यैः तान् रत्नराशिरहितान् शिलोच्चयान् शिखराणि न दधतम् अपलताभवनाः लतागृहरहिताः दरीभुवः गुहाप्रदेशान् न दधतम् ररीतु कन्दरो वास्त्री देवखातबिलेगुहाः इत्यमरः विगतानि पुलिनानि अम्बुरुहाणि च यासां ताः सरितः वध्व इव ताः सरिद्वधूः न दधतम् अत्र सरितां वध्वोपम्यात् पुलिनानाम् अम्बुरुहाणां च वदनजघनौपम्यं गम्यते अकुसुमान् महीरुहः वृक्षान् न दधतम् किन्तु रत्नादिसम्पन्नानेव शिलोच्चयादीन् दधतमित्यर्थः महाविभाषया न अत्र नैसमासः।